लेखपालः। सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्युठान जनपदे कारयान दुर्घटनायाम् अष्टौ जनाः मृताः सन्ति। स्वर्गद्वारी मन्दिरस्य दर्शनस्य पश्चात् प्रत्यावर्तनस्य क्रमे कारयानम् दुर्घटितम् सद् तस्मिन् याने आरूढाः यात्रिणः मृताः वर्तन्ते। स्वर्गद्वारी नगरपालिकायाः चतुर्थवडा क्षेत्रवर्तिनः भिंग्री बजार स्थानस्य निकटे टाकुरा नामधेये स्थाने ह्य पादोन त्रिवादने तत् कारयानम् दुर्घटितम् आसीत्। कारयानम् स्वर्गद्वारी भिंग्री मार्गखण्डस्य टाकुरा नामक स्थानात् आसन्न 50 मीटरमितादः पतितम् इति जनपद प्रहरी कार्यालयस्य प्रमुखः प्रहरीनायब उपरीक्षकः सुभाष खड्का अज्ञापयत्। एतस्य अनुसारेण दुर्घटनायां मृतानां मध्ये 7 जनानां सत्यापनं सम्भूतमस्ति। एकस्य जनस्य सत्यापनम् अवशिष्टं वर्तते। दुर्घटनायां मृतकेषु दाङ जनपदस्य तुलसीपुर उपमहानगरपालिकायाः 15 वडा क्षेत्रवर्तिनः कोठरीस्थानस्य 35 वर्षीया सरिता शर्मा पोखरेलः, तस्याः 14 वर्षीय पुत्र विशाल पोखरेलः, 9 वर्षीय पुत्र विकास पोखरेलश्च सन्ति। एवमेव दाङ जनपदस्य लमही नगरपालिकायाः 7 वडा क्षेत्रवर्तिनो गढ़वा स्थानस्य 40 वर्षीय गोविन्द शाह, तदीय पत्नी 30 वर्षीय राधा नेपाली, तस्याः 9 वर्षीय पुत्र आदित्य शाहश्च मृताः इति प्युठान जनपद प्रहरी कार्यालयो ज्ञापयति। कारयानस्य चालकस्य दाङ जनपदस्य लमयी नगरपालिकायाः 4 वडा क्षेत्रस्य 49 वर्षीयस्य तारा बहादुर कुमालस्यापि सत्यापनम् भूतम्। अन्यस्य जनैकस्य सत्यापनम् अवशिष्टमस्ति इति जनपद प्रहरी कार्यालयस्य प्रमुखः खड्का अवोचत्। प्रतिनिधिसभाया गतदिवसीयोपवेशेन एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य विचारणा सम्बद्ध प्रस्तावः बहुमतेन स्वीकृतो वर्तते। उपवेशे सभामुखेन देवराज घिमिरे विधेन निर्णयार्थं प्रस्तुतः एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य विचारणा सम्बद्धः प्रस्तावः उपवेशस्य बहुमतेन स्वीकृतोऽस्ति। उपवेशे सभामुखः देवराज घिमिरे एतद् विक्रमवर्षीयं विनियोजन विधेयकम् आधृत्य मन्त्रालयानां सचिवालयानां च अन्तर्गतानां विभिन्नानां शीर्षकाणां विमर्शनाय सम्बद्ध मन्त्रिभिः उत्तरप्रदान कार्याय च अस्यैव ज्येष्ठस्य त्रिंशात् दिवसात् आषाढस्य द्वादश दिवसावधिकम् समयम् निरधारयत्। तत्पूर्वम् प्रतिनिधिसभायाः गतदिवसीयोपवेशे आगामिनः आर्थिक वर्षस्य राजस्व व्ययोः वार्षिकानुमानमाश्रित्य वित्ते सामान्य विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डॉ प्रकाश शरण महत राष्ट्रिय उत्पन्नायाः आर्थिक समस्यायाः राजस्वस्य वैदेशिक ऋणस्य सहायतायाश्च आन्तरऋणस्य च अवस्थायाः मौद्रिक नीत्या सृष्टस्य प्रभावस्य कोविड संक्रमणस्य युक्रेन युद्धेन सृष्टस्य बाह्यस्य अन्तरस्य च प्रभावस्य च मूल्यांकनं विधाय आयव्ययकम् आनीतमिति अवोचत। अर्थमन्त्री डॉ महत अवदत् उपलब्धानां स्रोतः साधनानां प्राथमिकतायाः प्रतिफलस्य च आधारेण आयव्ययकम् विनियोज्य उद्देश्यं च निर्धार्य एतस्य क्रमेण परिणामोन्मुखतापादनम् आयव्ययकेन स्वीकृतमस्ति। समग्रतः आयव्ययकस्य प्रभावः राजस्ववृद्धौ अर्थतन्त्रस्य सञ्चलनशीलतायां च केन्द्रितोस्तीति चर्चयन् अर्थमन्त्री डॉ महत नेपाले मूल्याभिवृद्धिकरस्य संकोचनं जायमानमस्तीति संस्मरन् च अब्रवीत् मूल्याभिवृद्धिकरस्य क्रमेण सीमायाः वर्धनात् एतस्य संशोधनम् अपेक्षितं वर्तते। अर्थमन्त्री डॉ महत अब्रवीत् आगामिनि आर्थिक वर्षे संचयनगत व्ययस्य प्रभावकारितायै सर्वकारेण कार्यतालिकया सह प्रभावकारी क्रियान्वयनस्य कार्यप्रणाली निर्मिता वर्तते। आगामिनः आर्थिक वर्षस्य आयव्ययकम् आधृत्य सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डॉ महत कतिपयेषु पर्वतीय जनपदेषु अधुनापि आधारभूत मार्ग पूर्वाधारस्य अपर्याप्तता तायाः कारणेन आवश्यकतायाः आधारेण मार्गयोजनासु विनियोजितं वित्तं वर्धापितमिति समस्पष्टयत्। अर्थमन्त्री डॉ महत कृष्यै महत्वपूर्णे तराई क्षेत्रे सेचनस्य सौविध्यं विस्तार्य उत्पादन वर्धनात्मकस्य सर्वकारीयोद्देश्यस्य अनुरूपं वित्तं निर्धारितमिति प्रत्यपादयत्। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव ज्येष्ठस्य 32 दिवसे बृहस्पतिवासरे पूर्वाह्नस्य 11 वादने वस्ता। राष्ट्रिय सभाया अन्तर्गतायाम राष्ट्रिय सम्बद्धता समन्वय समितौ जनपद निर्वाचन कार्यालयान् निरस्य जनपद प्रशासन कार्यालयानाम् अन्तर्गतम् स्थापनस्य प्रस्तावस्य विषये विमृष्टमस्ति। समितेः ह्यस्तनोपवेशे प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया व्यय न्यूनीकरणस्य नाम्नि जनपद निर्वाचन कार्यालयानाम् निरसनस्य प्रस्तावः अव्यवहारिकः संविधानस्य प्रतिकूलश्च भवतीति विचारम् व्यक्तवान्। प्रमुख निर्वाचन आयुक्तः थपलिया अवासत निर्वाचनायोगाय ज्ञापनेन विनैव आयव्यय विवरणे जनपद निर्वाचन कार्यालयानाम् निरसनस्य प्रस्तावः आनीतो वर्तते। असौ विषयेऽस्मिन् पुनः अविचारिते सति आगामिनः श्रावण मासात् जनपद निर्वाचन कार्यालयेभ्यः जायमानानि निर्वाचन व्यवस्थापनेन राजनीतिक दलानाम् नियमनेन च सह सम्बद्धानि सम्पूर्ण कार्याणि अवरोधिष्यन्ते इति असूचयत्। समिते सभापति दिलकुमारी रावल पार्वती अवोचत लोकतन्त्रस्य सबलीकरणस्य सन्दर्भे आयोगस्य सांविधानिक स्वायत्ततायां स्वतन्त्रतायां च प्रभावो न सर्जनीय। सभापति पार्वती विषयेऽस्मिन् गृहमन्त्रिणा सह विमृश्य आवश्यकं निर्देशनं प्रदास्यते इति अज्ञापयत। उपवेशे सांसदैः व्यय न्यूनीकरणस्य अन्य शीर्षकेष् ध्यानं दत्त्वा जनपद निर्वाचन कार्यालयानां संरचनां यथावत् स्थापयितुं परामृष्टम् आसीत्। राष्ट्रिय सभाया अन्तर्गतया विधायन व्यवस्थापन समित्या गत विक्रम वर्षीयेण नेपाल विश्वविद्यालय विधेयकेन सम्बद्धस्य प्रतिवेदनस्य प्रारूपं सपरिमार्जनं स्वीकृतमस्ति। समितेः सचिवालयेन निर्मितं प्रतिवेदनस्य स्वरूपं ह्यस्तनोपवेशेन सपरिमार्जनं स्वीकृतं वर्तते। उच्चशिक्षायां दृष्टस्य समावयस्य सम्बोधनत्वेन अस्य विश्वविद्यालयस्य अवधारणा अग्रे वर्धितास्ति। देशे अधुनापि अनधीतान् अनध्यापितान् च बहुविधागत प्रकृतिकान् विषयान् समाविश्य प्राज्ञिक कार्यक्रमाणां सञ्चालनस्य उद्देश्येन स्वायत्त सार्वजनिक विश्वविद्यालयस्य रूपेण अग्रे वर्धापनस्य चिन्तनमस्ति। विश्वविद्यालय पूर्वाधार निर्माण विकास समितेः अध्यक्ष अर्जुन कार्की अज्ञापयत। राष्ट्रिय सभायाः आगामिनि उपवेशे विधेयकस्य प्रारूपस्य प्रतिवेदनमेतत् प्रस्तोष्यते। शिक्षा विज्ञान प्रविधि मन्त्री अशोक कुमार राई कथयति नीति कार्यक्रमाणाम् अनुसारेण शिक्षायाम् आयव्ययकम् विनियोजितम् नास्ति। प्रतिनिधि सभायाः शिक्षा स्वास्थ्य प्रविधि समिते ह्यसिम्म प्रासादे उपविष्टे उपवेशे मन्त्री राई शिक्षा मन्त्रालयेन प्रस्तावितानाम् कार्यक्रमाणाम् समावेशनात् परम् वित्तस्य अनावण्टनात् सर्वकारस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च मध्ये समन्वयो न दृष्ट इति समस्पष्टयत्। उपवेशे शिक्षा मन्त्री राई सर्वकारेण माध्यमिक शिक्षाधिनियमस्य विश्वविद्यालय क्षेत्राधिनियमस्य च आनयनाय प्रक्रिया अग्रे वर्धापितास्तीति असूचयत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा कथयति सत्तायै विचाराय च कांग्रेस दलेन केनापि सह संविधान क्रियते। नेपाली कांग्रेस दलम् पदप्रापणस्य आशया एव निर्मितम् दलम् नास्तीति तर्कयन् महामन्त्री थापा अतः परम् कांग्रेस दलेन वडा स्तरात् केन्द्रम् यावत् राष्ट्रपति निर्वाचने च गठबन्धनम् न करिष्यते इति समस्पष्टयत्। नेपाली कांग्रेस दलस्य मकवानपुर जनपदस्य द्वितीय निर्वाचन क्षेत्रेण अस्यैव क्षेत्रस्य द्वितीयेन सभा क्षेत्रेण च संयुक्त रूपेण ह्यः आयोजिते क्षेत्रीय सम्मेलने महामन्त्री थापा दलेन अतःपरं वर्ष चतुष्टयस्य अभ्यन्तरे कार्याणि सम्पादनीयानीति बलं प्रादात्। दलाभ्यन्तरे आत्मविश्वासं हापयित्वा दुर्बलाः न स्थातुं कार्यकर्तॄन् अनुरुन्धानः महामन्त्री थापा कांग्रेस दलं निर्वाचने विजय प्राप्तेः अपेक्षयापि नेपाली जनतायाः मनोजेतुं निर्मितं दलम् अस्ति इति विचारं व्यक्तवान्। इति समाचाराः।